सरस्वती नमस्तुभ्यम् वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम् संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम् संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम् संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् वन्दे संस्कृतमातरम्। हरि ओम् सर्वेषां नमस्कारः।
नमस्कारः।
एतावत् पर्यन्तं यद् अस्माभिः अधीतं तस्य किञ्चित् पुनस्मारणं कृत्वा अग्रे सरामः। श्री आञ्जनेयः लङ्कातीरं प्राप्तवान्, तत्र गिरितः अवतीर्य सः लङ्किन्याः अधिदेवतायाः अवधीरणं कृत्वा, तिरस्कारं कृत्वा, पुनः तस्याः अनुमतिं च प्राप्य सः लङ्कानगरं प्रविष्टः। तदानीं रात्रिसमयः, सः जानन्नेव रात्रिसमयस्य निरीक्षां कृतवान्, येन सः अन्यराक्षसैः दृष्टिगोचरः न भवेत् इति। पुनश्च सूक्ष्मरूपं धृत्वा सः नगरीं सर्वामपि, समग्रामपि दृष्टवान्। सीताम् अन्वेष्टुं सः रावण गृहं प्रविष्टवान्, यतः रावणेन अपनीता इति सः जानाति। अतः तस्याः अन्वेषणं तत्र साधु एव किल, समीचीनमेव, तत्रैव सा अन्वेष्टव्या इति मत्वा सः रावणस्य अन्तःपुरमपि प्रविष्टवान्। तत्र कथमासीत् इत्यादिकं पूर्णं पूर्वं वर्णितम्। अनन्तरं सः एव तत्र सीताम् अदृष्ट्वा अपश्यन् अतीव चिन्तामग्नः अशोकवनिकां प्रविष्टवान् इति दृष्टवन्तः। तत्र शोकमग्नां दीनां परमां साध्वीं सीतां दृष्ट्वा सः अचिन्तयत्, एनां साध्वीं पतिव्रतां शुचिं सीतां विहाय एतस्याः वियोगे रामः कथं प्राणान् धरति इति चिन्तितवान्। कदाचित् सूर्यः अपि स्वपत्नीं छायां विना तिष्ठेत्, चन्द्रः अपि ज्योत्स्नां विना विलसेत्, किन्तु श्रीरामः सीतां विहाय कथं धैर्यं धरति, प्राणान् च धरति इति तस्य आश्चर्यं भवति। एतावत् वयं दृष्टवन्तः। एवं चिन्तयता हनुमता इति गद्यभागम् अग्रे, एवं सः चिन्तयन् आसीत् अनेन प्रकारेण, तदा किम् अभवत् इति अग्रे भवति, तद् वयं गद्यभागम् इदानीं पठामः। अहं पठामि, कृपया अनुवदन्तु। एवं चिन्तयता हनुमता,
एवं चिन्तयता हनुमता,
कथमपि निशीथसमये गते,
कथमपि निशीथसमये
निशीथिनी नाथेऽपि,
निशीथिनी
चरमगिरिशिखरोपकण्ठसेवाम् उत्कण्ठमाने,
चरमगिरिशिखरोपकण्ठसेवार्थमुत्कण्ठमाने,
दशकण्ठः तु
दशकण्ठस्तु
निद्राशेषेण स्मर शरप्रहारेण च,
निद्राशेषेण स्प्रहारेण च
कलुषीकृताक्षः
कलुषीकृताक्षः
सरस हरिचन्दन चर्चया जानकी दर्शनेच्छया च
सरस हरिचन्दन चर्चया जानकी दर्शनेच्छया च
प्रकटितरागः
प्रकटितरागः
परिवर्तित वैकक्षमालया मकुटरत्न प्रभया च
परिवर्तित वैकक्षकमालया मकुटरत्न प्रभयाश्च
तिरस्कृत नक्षत्रमालः
तिरस्कृत नक्षत्रमालः
शनैः शनैः अविशत् अशोकवनिकाम्
शनैः शनैरविशत् अशोकवनिकाम्
सः अशोकवनिकाम् आगतः कः रावणः पूर्वमेव आञ्जनेयः अशोकवनिकां प्रविश्य कञ्चन शिंशपावृक्षम् आरूढवान् तत्र पत्राणां मध्ये प्रच्छन्नः स्थितः इति वयं दृष्टवन्तः कथं यथा न्यग्रोधपत्रपुटे भगवान् विष्णुः शेते तथा एषः दर्शनम् एतस्य दर्शनम् आसीत् इति पूर्वं वयं दृष्टवन्तः अत्र ततः शिंशपावृक्षतः आञ्जनेयः पश्यति प्रविशति रावणः एवं चिन्तयता हनुमता एवं यदा हनुमान् अनेन प्रकारेण चिन्तनानि अथवा चिन्ताः अपि चिन्तनं विचारः चिन्ता इत्युक्ते यद् किञ्चित् शोकं जनयति अथवा भयं कारयति अथवा उद्वेगं जनयति तत् एवं चिन्तयता हनुमता कथमपि अत्र कथमपि इति पदस्य अर्थः अतिकृच्छ्रेण कष्टेन समयं यापितवान् रात्रिकालः सीतां पुरतः पश्यति किन्तु सम्भाषितुं न शक्नोति झटिति सम्भाषणेन कदाचित् अनर्थः स्यात् इति मत्वा सः समीचीनकालस्य निरीक्षां कुर्वन् अस्ति अतः सः समयः तं समयं यापयितुं सः कष्टम् अनुभूतवान् तत्र कथमपि निशीथसमये निशीथः नाम अर्धरात्रः निशीथसमये अर्धरात्रसमये गते यदा अर्धरात्रः अतीतः निशीथिनीनाथे अपि निशीथिनीनाथः कः चन्द्रः तस्य नाथः सूर्यः नाथः चन्द्रः निशीथिनीनाथे अपि चन्द्रः अपि चरमगिरिशिखरोपकण्ठसेवां कण्ठमाने चरमगिरिः वयं पूर्वमेव दृष्टवन्तः चरमाचलः इत्युक्ते पश्चिमाचलः पश्चिमगिरिः चरमगिरिशिखरं तस्य शिखरम् उपकण्ठम् इत्युक्ते समीपं पश्चिमगिरेः शिखरस्य समीपं यदा आगत्य तत् स्थानम् आश्रयितुम् उत्कण्ठितः चन्द्रः तत्र समीपम् आगन्तुम् इच्छुकः आसीत् चन्द्रः तत् शिखरस्य समीपम् इत्युक्ते यथा मध्याह्नसमये सूर्यः साक्षात् उपरि भवति तथा चन्द्रः अपि मध्यरात्रसमये उपरि भवति किल साक्षात् शिखरस्य उपरि तथा समुत्कण्ठमाने सः तत्र तत् शिखरम् आश्रयितुकामः चन्द्रः आसीत् तदा दशकण्ठः तु अत्र पदप्रयोगः अतीव सुन्दरः उत्कण्ठमानः चन्द्रः दशकण्ठः दशग्रीवः रावणः इतः परम् उच्यमान पदानि सर्वाणि अपि रावणस्य विषये सन्ति निद्राशेषेण इत्यारभ्य सः दशकण्ठः कथं प्रविष्टः तस्य किं किं लक्षणमासीत् कथं दृष्टः सः इत्युक्ते कलुषीकृताक्षः आसीत् प्रकटितरागः आसीत् अनन्तरं तिरस्कृतनक्षत्रमालः इति पदत्रयं तस्य विषये उच्यते केन कारणेन इत्यपि त तत्पूर्वपदानि वयं पश्यामः. कलुषीकृताक्षः तस्य नेत्रे आरक्ते आस्ताम्, रक्तमये नेत्रे. केन कारणेन एवम् इति चेत् निद्रा अशेषेण, निद्रायाः अभावः तस्य, अतः निद्रायाः अशेषः. स्मर शरप्रहारेण इत्युक्ते मन्मथः, मन्मथस्य बाणप्रहारः. मन्मथबाणप्रहारः कथं भवति इत्युक्ते मन्मथपीडा भवति. मन्मथबाणः इति वयं सर्वे जानीमः, पञ्च पुष्पैः निर्मितः सः बाणः. पञ्चपुष्पाणि कानि इत्युक्ते अशोक अरविन्द नवमल्लिका इति, च्यूत नवमल्लिका नीलोत्पल इति पञ्च कुसुमैः निर्मितं तद् भवति. तेन तद् पञ्चविध मनोभावं जनयति इति अर्थः. स्मरशरप्रहारेण च निद्रायाः अभावात् वा तस्य नेत्रे कलुषीकृते आस्ताम्, कषायिते आस्ताम्. प्रकटितरागः सः आसीत् इति अत्र उच्यते. केन कारणेन रागः इत्युक्ते अर्थः, एकं तु वर्णः रक्तवर्णः, द्वितीयं रागः प्रेम अनुरागः इति अपि भवति. प्रकटितरागः प्रकटित प्रेम अनुरागः आसीत् सः. पुनः अपि तस्य देहे सरसहरिचन्दनलेपः आसीत्. अतः सरस नाम आर्द्र, आर्द्रहरिचन्दनस्य चर्चनेन लेपनेन, चन्दनचर्चित इति वदामः, तेन प्रकटितरागः आसीत्. यदा चन्दनस्य आर्द्रता भवति तदा एव चन्दनं सुरभिमत् भवति. पुनः तस्य वर्णः अपि इतोपि समिद्धं भवति. वर्णः च सुगन्धः च तेन तस्य एधते. अतः सरसहरिचन्दनचर्चया जानकीदर्शनेच्छया च, जानक्याः दर्शनस्य इच्छया च, तस्य उत्कण्ठया प्रकटितरागः. एकं तु त्वचः लालिमा रक्तवर्ण वर्णत्वं, द्वितीयं प्रकटितः मनोगतः अनुरागः प्रेम इति. पुनः तस्य सः कीदृशः, परिवर्तितवैकक्षमालया मुकुटरत्नप्रभया च. तस्य वक्षस्थले काचित् माला विलसति, तिर्यक् स्थिता माला, तद् वैकक्षकमाला इति उच्यते. इत्युक्ते उरः, शरीराङ्गं. विकक्षे भवा माला, वैकक्षकमाला, यथा उरसि भवा माला, या माला उरसि भवति तर्हि यज्ञोपवीतवत् तिर्यक् प्रक्षिप्तं भवति, प्रक्षिप्ता माला भवति. अतः परिवर्तित तिर्यक् क्षिप्तं, क्षिप्ता माला, वैकक्षकमाला, उरसि स्थिता माला. तया तेन कारणेन मकुटरत्नप्रभया च, तस्य मुकुटे किरीटे रत्नानि सन्ति, तेषां रत्नानां कान्तिः भवति किल, तया प्रभया च, तया कान्त्या च किं भवति इत्युक्ते नक्षत्रमाला एव अवधीरिता भवति. आकाशे स्थिता नक्षत्रमाला, सप्तविंशतिनक्षत्राणां समूहः, सा एव तिरस्कृता भवति. तिरस्कृतनक्षत्रमालः, तिरस्कृता नक्षत्रमाला येन सः रावणः, तिरस्कृतनक्षत्रमालः सः शनैः शनैः, शनैः शनैः इति किमर्थम् अत्य उच्यते इत्युक्ते, पूर्वमेव उक्तं सः मन्मथपीडया सः उद्विग्नः अस्ति, अतः उन्माद स्तंभ इत्यादि लक्षण भवति यदा कश्चन तथा पीडितः भवति अतः सः शनैः शनैः मन्दम् अशोकवनिकाम् अशोकवाटिकाम् अविशत् प्रविष्टवान् इति अत्र विषयः एवं सः रावणः तत्र आगतवान् इत्येव अत्र सारः वयम् अग्रे पश्यामः इत्युक्ते प्रातः अपि न प्रातःकालः अपि न जातः इदानीं ततः पूर्वमेव सः तत्र आगतः अत्र अग्रिम श्लोकभागः भागे अत्र कविना एवं वर्ण्यते केन कारणेन एवं रावणः तदा एव आगतः इत्युक्ते सः मोहान्धः मोहेन सः अन्धः जातः किं करोमि देशः कालः किमपि न चिन्त्यते वस्तुतः केनापि किमपि कार्यं करणीयं चेत् देशः कालः च चिन्तनीयम् अहं कुत्र अस्मि मम स्थानं कुत्र अस्ति समाजे अथवा कुले अनन्तरं कालः एषः उचितः कालः वा न वा इति प्रातः अपि न अभवत् प्रभातः अपि न अभवत् ततः पूर्वमेव सः आगतः सः मोहान्धः तमसा आविष्टः इति वर्णयति तदपि सुन्दरचित्रणेन वर्णयति कविः तद् पश्यामः रजनिचरमभागे वारसीमन्तिनीनाम् करतलकलिताभिः दीपिकामार्जनीभिः दिशि दिशि परिमृष्टं यत्तमस्तत्समस्तम् हृदयम् अवजगाहे केवलं रावणस्य परं पद्यभागानामेव आकाङ्क्षा अन्वयः विस्तरेण दर्श्यते गद्यभागानां साक्षात् एव वयम् अन्वयम् अर्थम् इति पश्यामः इदानीं पद्यमस्ति तस्य आकाङ्क्षाक्रमेण अन्वयम् अत्र क्रियापदं किं प्रथमं पदच्छेदं कृत्वा पश्यामः रजनी चरमभागे वारसीमन्तिनीनां करतलकलिताभिः दीपिकामार्जनीभिः दिशि दिशि परिमृष्टं यत् तमः तत् समस्तं हृदयम् अवजगाहे केवलं रावणस्य अवजगाहे गाहते इति क्रियापदमस्ति गाहते अवगाहनम् इत्युक्ते निमज्जनं सर्वमपि प्रविष्टम् इति अर्थः प्राविशत् अवजगाहे किम् अवजगाहे तमः अन्धकारः तमः अज्ञानम् इति पदं द्योतयति किल तमः यथा प्रकाशः ज्ञानं ज्ञानसूचकं पदं तथा तमः अज्ञानसूचकं पदम् कीदृशं तमः यत् परिमृष्टं चिन्तयतु सर्वं तमः परिमार्ज्यते सर्वस्य परिमार्जनं भवति कथं मार्जनम् इत्युक्ते अत्र एक चित्रणं करोति उत्प्रेक्षणं करोति कविः रावणः चलति अग्रे अग्रे तस्य अग्रे अन्य स्त्रियः अङ्गनाः महिलाः चलन्ति अन्तःपुरस्त्रियः तस्य पत्न्यः परिवारजनाः तासां हस्ते किमस्ति तासां हस्ते दीपः अस्ति करदीपः करदीपं किमर्थं ताः नयन्ति इत्युक्ते इदानीं वयं दृष्टवन्तः रात्रेः अन्तिमयामः अतः तस्मिन् समये करदीपेण एव द्रष्टुं शक्यम् इति तासां हस्ते करदीपः अस्ति दीर्घकरदीपाः भवन्ति किल दीर्घम् अतः सम्मार्जनी इव ताः करदीपः करदीपान् धरन्ति तया सम्मार्जन्या మార్జయంతి తాహ అగ్రే గచ్చంతి ఇత్యుక్తే అంధకారం దూరీకుర్వంతి యథా కాచన స్త్రీ మార్జన్య అవకరం దూరీకరోతి తథా ఏతాహ కిం కుర్వంతి రూపకరదీపేణ తమః దూరీకుర్వతి అగ్రే గచ్చతి మహిళ తదా తద్ సమగ్రమపి తమః కిం అభవత్ తస్య తమః కుత్ర గతం అవకరః చేత్ సర్వం ఏకత్ర ఏకత్రీకృత్య తద్ పునః అవకరికాయాం క్షిప్యతే అత్ర తమో రూపం సర్వమపి కుత్ర గతం తద్ సర్వమపి సహ మోహః భూత్వా రావణస్య హృదయం హృదయం తద్ తమః ప్రవిష్టం ఇతి కవిః వర్ణయతి అతః కిం అవజగాహే తమః తత్ర ప్రవిష్టం కీదృశం తమః పరిమృష్టం పరిమార్జితం పునః కీదృశం తమః సమస్తమపి తమః కుత్ర పరిమృష్టం దిశి దిశి సర్వాసు దిక్షు పరిమృష్టం సర్వాసు దిక్షు తాహ స్త్రియః హస్తే దీపాః గృహంతి దీపాః గృహంతి ఏకైకా అపి స్త్రీ గచ్చతి కాభి పరిమృష్టం తమః దీపికా మార్జనీభిః దీపికాః ఏవ మార్జనీ ఇతి చింతయతు దీపికా మార్జనీభిః కీదృశీభిః దీపికా మార్జనీభిః కరతల కలితాభిః కరతలేషు భిః మార్జనీభిః కాసవం కరతలే వారసీమంతినీనాం స్త్రీణాం ఏతద్ కదా పరిమృష్టం రజని చరమ భాగే రాత్రేహే అంతిమ భాగే త్రః అతీతః ఇతి పూర్వతల గద్య భాగే ఏవ అస్మాభిః దృష్టం ఇదానీం రజన్యాః భాగః తమః కుత్ర అవజగాహే హృదయం కస్య హృదయం కేవలం రావణస్య హృదయమే అవజగాహే ప్రవిష్టం అంతిమ భాగే తాభిః తాసాం స్త్రీణాం హస్తేషు గృహీతాభిః దీపికా రూప మార్జనీభిః ఇక్షు మార్జితం యత్ తమః తమగ్రమపి తమః రావణస్య హృదయం ప్రవిష్టం అర్థః ఏకైకస్య పదస్య అపి అర్థం పశ్యామః భాగే నిశా అంతే నిశాయాః అంతే యామే రాత్రేః ఉత్తరార్ధే తినీనాం వరాంగనానాం కరతల కలితాభిః దీపికా మార్జనీభిః కరేషు గృహీతాభిః కరదీపికా రూప శోధనీభిః పృష్టం అపాకృతం దూరీకృతం యత్ కిం అభవత్ తస్య మోహరూపం ప్రాప్య రావణస్య హృదయం నిశేషతయా రావణ హృదయం కేవలం ఇది పదం అత్ర కిం వదతి ఇత్యుక్తే నిశేషతయా అశేషేణ రావణస్య హృదయం ప్రవిష్టం కిమపి పరిత్యజ్య తద్గతం ఇది అవజగాహే ప్రావిశత్ అవజగాహే ఇది పదమపి కవినా సుందరతయా ప్రయుక్తం అత్ర ఇతే డైవ్ ఇతి అర్థ తథా సర్వమపి ప్రవిష్టం ఏవం ఏతస్య అర్థః రజన్యాః అంతిమ భాగే వరాంగనాభిః స్వహస్తేషు గృహీత దీపికా రూప మార్జనీభిః దిశి దిశి యద్ పరిమృష్టం యత్ తమః అంధకారః దూరీకృతః తత్ సమగ్రః అపి అంధకారః అజ్ఞానం భూత్వా అథవా మోహః భూత్వా రావణస్య హృదయం సహ మోహః ప్రవిష్టః ఇతి భావః ఏకవారం శ్లోకం దృష్ట్వా అగ్రే గచ్చామః. రజని చరమ భాగే వారసీ మంతినీనాం కరతల కలితాభిర్ దీపికా మార్జనీభిః దిశి దిశి పరిమృష్టం యత్తమస్తత్ సమస్తం హృదయమవజగాహే కేవలం రావణస్య యత్తమస్తత్ సమస్తం ఇత్యపి అత్ర సుందర అనుప్రాసః. ఇదానీం అగ్రే పశ్యామః. సహ రావణః అశోకవనికాం ప్రవిష్టః. సాక్షాత్ కుత్ర గతవాన్? దేవి సీతా యత్ర ఆసీత్ తత్ర గతవాన్. సహ తత్ర సమీపం గతః, సహ కాం ఉపగచ్చతి, కస్యాః సమీపం గచ్చతి? సాక్షాత్ దేవ్యాః సీతాయాః సమీపం. తాం సహ సామాన్యాం స్త్రీం మన్యతే, తస్య దోషః. ఇదానీం మోహాన్వితః కిల, అతః మోహేన సహ తాం కాంచన సాధారణీ స్త్రీ ఇది తాం చింతయతి. తథా అతః సహ తస్యాః సమీపం గచ్చతి. పరిణామం అవిచింత్య ఏతాదృశీమహం పతివ్రతాం స్త్రీం సాక్షాత్ వీరస్య శ్రీరామస్య పత్నీం ఏవం ఉపగచ్చామి. ఏతస్య పరిణామః కః భవేత్ ఇతి అవిచింత్య, అవివేకి ఏవ పరిణామం అవిచింత్య కార్యం కరోతి. తథైవ అత్ర వివేక నష్ట వివేకః ఏషః రావణః గచ్చతి. తత్ర ఉపమా దర్శితా కవినా, కశ్చన గజః మదోద్ధత్తః గజః, మద వారి మదజలం యదు భవతి తద్ ఉన్మత్తం కరోతి గజం. తాదృశః గజః యాగస్య అగ్నిజ్వాలా భవతి కిల, యాగస్య అగ్నిజ్వాలాం దూరాత్ దృష్ట్వా సహ చింతయతి సా కాచిత్ లతా ఇతి. గజప్రియ లతా ఇతి కశ్చన వృక్షః, కాచన కశ్చన పాదపః భవతి. తస్య సుగంధః సమ్యక్ భవతి, తేన సుగంధేన ఆకృష్టః గజః తత్ సమీపం గచ్చతి తద్ సేవితుం. తథా అగ్నిమేవ సాక్షాత్ గజప్రియలతాం మన్యమానః గజః యథా అగ్నిం అగ్నేః సమీపం గచ్చతి తథా ఏషః సీతాయాః సమీపం ఆగతః ఇతి ఉపమాం దర్శయతి. అర్థం పశ్యామ, శ్లోకమపి పశ్యామ. సోయం మదాంధ హృదయో రఘువీర పత్నీం,
సోయం మదాంధ హృదయో రఘువీర పత్నీం
మంతి నీతి హత నీతి రవాప పాపః,
ఇమంతి నీతి
హత నీతి ఇవాపః
పాపః,
ఆమూల పల్లవిత కోమల సల్ల కీతి,
ఆమూల పల్లవిత కోమల సరసల కీర్తి,
వైతాన పావక శిఖామివ వారణేంద్రః,
వైతాన
పావక శిఖామివ వారణేంద్రః సహ అయం ఇది ఆరంభ. కహ సహ అయం, ఏతాదృశ ప్రయోగః సంస్కృత భాషాయాః బహు విశిష్ట ప్రయోగః. సహ అయం ఇత్యుక్తే అత్ర సహ తాదృశః అయం రావణః, పూర్వం పూర్వోక్తం మోహాన్వితః కిల, సర్వమపి సకలమపి తమః తస్య హృదయం ప్రవిష్టం. తాదృశః అవివేకీ సహ అయం మదాంధ హృదయః రఘువీర పత్నీం సీమంతిని ఇతి హతనీతిః అవాపః, అవాప క్షమ్యతాం అవాపహన అవాప పాపః, ఆమూల పల్లవిత కోమల సల్లకీ ఇతి వైతాన పావక శిఖాం ఇవ వారణేంద్రః. ఆకాంక్షాయాం క్రియాపదం చినుమః, అవాప ప్రాప్తవాన్ ఉపగతవాన్, అవ ఉపసర్గ పూర్వకం ఆప్ ధాతోః समीपं गच्छति इति अर्थः भवति. अवाप उपगतवान्. कः अयम्? कीदृशः अयम्? सः तमोगुणाविष्टमनस्कः, तमोगुणान्वितः. पुनः कीदृशः अयम्? मदान्धहृदयः. मदान्ध मदेन अन्धहृदयः. पुनः कीदृशः अयम्? हतनीतिः एव नास्ति, अथवा नीतिं यः न पालयति. काम् अवाप? रघु. रघुवीरपत्नीम् अवाप. कः इव अवाप? तत्र उपमा, अतः एव पूर्णवाक्यमेव अन्वये दीयते. वारणेन्द्रः आमूलपल्लवितकोमलसल्लकी इति वैतानपावकशिखाम् इव अवाप. अन्वयः भवति सः अयं मदान्धिनी इति रघुवीरपत्नीम् वारणेन्द्रः आमूलपल्लवितकोमलसल्लकी इति वैतानपावकशिखाम् इव अन्वयार्थं पश्यामः. सः, सः कः? मोहाकुलः. तमसा अभिभूतः, तमसा व्याप्तः, व्याप्तमस्ति तस्य मनः. तादृशः रावणः अयं रावणः मदान्धहृदयः, हतविवेकः. रावणपक्षे गजपक्षे उभयत्र अपि द्रष्टव्यम् अस्माभिः. रावणपक्षे मदान्धहृदयः इत्युक्ते दर्पेण नष्टविवेकः. कस्यचिदपि नरस्य, मनुष्यस्य क्षमः इति उभय गुणद्वयमपि अपेक्षते. विशिष्य साधन षट्कसम्पत्तिः इति यत्र वदामः. दमः इत्युक्ते इन्द्रियाणां नियन्त्रणं, क्षमः इत्युक्ते मनसः नियन्त्रणम्. इन्द्रियाणां यः नियमनं करोति सः दान्तः इति उच्यते. अत्र अधमः, यस्य दमः, इन्द्रियनिग्रहणं नास्ति. शक्यते तादृशं गज दमयितुं न शक्नुमः. अतः गजपक्षे मदोद्धत्तः, रावणपक्षे मदः इत्युक्ते अत्र गर्व, गर्वेण सः नष्टविवेकः. अत्र मदजलेन सत् गजः अपि नष्ट. हतनीतिः नष्टनयः रावणपक्षे, यस्य नष्ट अस्ति नष्टनयः. गजपक्षे गजः तु नयमार्गं, नीतिः अनीतिः नाति. किन्तु अत्र कथम् अर्थं स्वीकर्तुं शक्नुमः इत्युक्ते दुर्विनीतः, तं विनेतुं न शक्यते, तें कर्तुं न शक्नुमः. अतः दुर्दम्यः, तादृशः गजः. पापः, पापः इति पदं रावणस्य दुराचार, दुराचारी. पापम् इति पदं पापं पुण्यं, सुकृतं दुष्कृतम् इति सूचयति. किन्तु पापः तं जनं पदम् उच्यते. यः पापम् आचरति सः पापः. पुल्लिङ्गशब्दः. सः तादृशः रावणः, मदान्धहृदयः, हतनीतिः, पापः रावणः. सीमन्तिनी इति साधारणस्त्री इति मत्वा रघुवीरपत्नीं, श्रीरामभार्याम् उपगच्छति. कथमिव अवाप? वारणेन्द्रः, गजेन्द्रः, वारणः इत्युक्ते गजः, वारणेन्द्रः आमूलपल्लवितकोमलसल्लकी इति अवाप. गजेन्द्रः कृत्स्नापि किसलयोपेता मृदुलता, गजप्रियलता भवति किल, गजप्रियलता इति विचिन्त्य अग्निज्वालाम् उपसर्पति उपगच्छति. आमूल इत्युक्ते मूलतः इत्युक्ते सर्वत्र तत्र पुष्पमयम् अस्ति, तत् सा लता पुष्पमयी अस्ति. आमूलपल्लवित कोमलसल्लकी, सल्लकी इत्युक्ते गजप्रियलता. तादृशीं लतां यथा गजः इच्छति सेवितुं, किन्तु सः अग्निज्वालां दृष्ट्वा एषा गजप्रियलता इति विचिन्त्य समीपं यथा गच्छति, तथा एषः रावणः सीतां साधारणी स्त्री इति मन्यते, अतः तस्याः समीपं गतवान् इति अर्थः. वैतानपावकशिखामिव इत्युक्ते यज्ञसम्बन्धिनीम् अग्निज्वालाम् इव. वैतान वितान यज्ञ, वैतान तद्धितं यज्ञसम्बद्ध, पावक अग्निः, पावकशिखा अग्निज्वालां मत्वा यथा अग्निज्वालामेव गजप्रियलतां मत्वा यथा गजः गच्छति, तथा एषः सीताम् उपगतवान्, तस्य परिणामं न चिन्तितवान् इति अर्थः. तस्य क्रियमाणस्य करिष्यमाणस्य च पापस्य परिणामं न चिन्तितवान्, यतः सः मोहान्धः जातः इति अर्थः. गीतायां श्लोकः अस्ति किल, ध्यायतो विषयः पुंसान् सङ्गात् तेषु उपजायते, सङ्गात् सञ्जायते कामः, कामात् क्रोधोऽभिजायते, भवति सम्मोहः, सम्मोहात् स्मृतिविभ्रमः, स्मृतिभ्रंशात् बुद्धिनाशः, बुद्धिनाशात् प्रणश्यति. साक्षात् एतं श्लोकं वयम् अत्र रावणस्य विषये द्रष्टुं शक्नुमः. विषयान् पुंसः, विषयं ध्यायन् अस्ति रावणस्य मनसि. कः विषयः इदानीं? सीताविषयक अनुरागः. पुनः पुनः सः ध्यायन् अस्ति किल, तद्विषये एव चिन्तयन् अस्ति इति कारणेन कामः तस्य मनसि, कामात् क्रोधः, अप्राप्तिः चेत् इदानीम् अग्रे वयं द्रक्ष्यामः सः बहु क्रोधात् भवति सम्मोहः, पुनः पुनः सीता तं निराकरोति इति कारणेन सः क्रुद्धः अपि मुग्धः अपि, मोहात् भवति सम्मोहः, सम्मोहात् स्मृतिविभ्रमः, बुद्धिनाशः, प्रणाशः इति क्रमेण तस्य नाशः कथं भवति इति भगवता आदर्शित उक्तगीताश्लोकस्य वयं साक्षात् उदाहरणं दृष्टान्तम् अत्र रावणविषये कुर्मः. इदानीं तादृशः मोहान्वितः एषः आगतः, हितं दृष्ट्वा सीतादेव्याः शरीरे वेपथुः जायते, कम्पमाना अस्ति सा, जुगुप्सया वा, सा तद् न इच्छति, अतः कम्पमाना तिष्ठति सा. अनन्तरं तथापि कथमपि धैर्यम् आदाय सा तं हितवचनं वदति. देवी अस्ति, अनन्तरं साध्वी अपि अस्ति, अतः आरम्भे एव तर्जनेन आरम्भं न करोति तस्याः वचनं. प्रथमतया सा तं किञ्चित् उपदेशं दातुम् इच्छति, किन्तु यदा सः न शृणोति तदा एव सा तं तर्जनपूर्वकवचनं वदति. अनन्तरं कथं सा तेन सह भाषते, तृणम् अन्तरतः कृत्वा इति अत्र एकं पदं, तद् बहु सुन्दरं पदं, तत्र रामायणे अपि, वाल्मीकिरामायणे अपि विस्तरेण एतद् विषये उच्यते. इदानीं गद्यभागं पश्यामः. एतद्दर्शनेन वेपमानतनुलता,
एतद्दर्शने वेपमानतनुलता,
का पुरुषविषय परुषवचन पारम्पर्येण,
का पुरुषविषय परुषवचन पारम्पर्येण,
विदीर्यमाण हृदया,
विदीर्यमाण हृदया,
हृदयदशय प्रत्यया,
हृदयदयिताशय प्रत्ययात्
एव
अमुमेव तृणमन्तरतः
कृत्वा
इता पर्यभाषत
एतद् दर्शनेन एतस्य रावणस्य दर्शनेन वेपमान तनुलता भयात् कंपमान गात्रा तनु लता इव इति सीता तादृशी सीता वेपमाना आसीत् कंपमाना अर्जुनः अपि गीतायां वदति सीदन्ति मम गात्राणि मुखं च परिशुष्यते वेपथुश्च शरीरे मे रोमहर्षश्च जायते वेपथुः कंपनम् वेपमाना वेपते कंपते कंपमाना आसीत् सा मैथिली सीता का पुरुष विषय परुष वचन पारंपर्येण निरंतरं क्रमेण अविरततया सह दुर्वचनानि अवाच्यं वदति अतः वचन पारंपर्येण गर्ह्य वचने निंदायोग्य वचनानि सह वदति कः वदति का पुरुषः दुराचारी कुत्सितः पुरुषः का पुरुषय दुराचारिणः व्यवहारः इति अर्थः का पुरुषविषय इत्युक्ते विषयस्य सामान्य अर्थः सब्जेक्ट् इति किन्तु अत्र उचित इति अर्थः का पुरुषविषयः अभद्रजनोचित का पुरुषविषय का पुरुषोचित परुष इत्युक्ते निंद्य असह्य परुषवचन पारंपर्येण क्रमशः अविरततया विरामं विना सः वचनं यद् वदति तस्याः कृते असह्यं भवति दुश्रव्यं भवति कर्णकटु भवति तद्वचनं तादृशवचनपारम्पर्येण क्रमेण उच्यमानं तस्य वचनं वचनेन विदीर्यमाणहृदयसीता तस्याः मनः भग्नम् अतः विदीर्यमाण विदारयति हृदयं तस्य वचनम् अतः विदीर्यमाणहृदया सा सीता देवी हृदयदयिताशयप्रत्ययात् पश्यतु अत्र तस्याः यद्यपि एकतः तस्याः हृदयं विदीर्णम् अत्यन्तं दुःखिता सा किन्तु अग्रिमक्षणे अपि मनसि कश्चन विश्वासः उदेति कीदृशः विश्वासः प्रत्ययः प्रत्ययः इत्युक्ते विश्वासः हृदयदयित आशयप्रत्ययात् हृदयदयितः कः सीतायाः श्रीरामः प्राणेश्वरः हृदयदयितस्य आशयः आशयः इत्युक्ते उद्देशः कः श्रीरामस्य मनसि किं चिन्तनम् इदानीं रावणः हन्तव्यः रावणस्य पराजयः भवेत् सीता सुरक्षिता स्यात् सुरक्षितां सीतामहम् इति एव किल तस्य चिन्तनः हृदयदयित आशयः आशयः इत्युक्ते अत्र राम श्रीरामस्य उद्देशः तस्य प्रत्ययात् श्रीरामस्य उद्देशे तस्याः पूर्णविश्वासः अस्ति अतः तस्मात् प्रत्ययात् विश्वासस्य हेतोः अमुमेव रावणमुद्दिश्य इत्युक्ते एतं रावणं तृणम् अन्तरतः कृत्वा तृणं मध्ये संस्थाप्य एकं तृणं ततः छित्त्वा भूमितः तद् मध्ये स्थापयित्वा तृणम् अन्तरतः कृत्वा स्थिता तत्र वर्तमाना अवदत् अत्र तृणमन्त्रतः कृत्वा इति पदस्य विवरणं व्याख्यानकारैः बहु विस्तरेण दीयते यतः श्रीवाल्मीकि श्रीमद्वाल्मीकिरामायणे अपि एतद् वाक्यः अस्ति बहु प्रसिद्धः इति कारणेन कदाचित् चम्पूकारेण अपि भोजराजेन एतद् एषः वाक्यांशः तथैव अत्रापि स्वीकृतः. श्रीमद्वाल्मीकिरामायणे तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता मत्तः स्वजने प्रियतां मनः मोहमत्तः सा वदति प्रतिगच्छ इतः इति. किमर्थं तृणमन्तरतः कृत्वा, तृणं किमर्थं मध्ये संस्थापयति सा इति तस्य व्याख्यानानि बहूनि सन्ति. कानिचन अहं यथा अत्र ग्रन्थे दत्तं तदेव वदामि. सुन्दरविचाराः सन्ति. एकं तु तस्य तृणस्य तत्र स्थापनं किं किं सूचयति. प्रथमकारणं पापिष्ठेन साक्षात् सम्भाषणम् अनुचितम् इति बुद्ध्या तृणं मध्ये तद्द्वारा भाषणम् इति अर्थः. द्वितीयं श्रीरामः पूर्वं समीपकाले एव घटिता घटना, श्रीरामस्य सीतारामयोः मध्ये काकासुरः यदा आगतवान् इन्द्रस्य पुत्रः काकरूपं धृत्वा दुराचारं कृतवान्. श्रीरामः तृणेनैव तं सर्वत्र द्रावितवान् किल, सर्वत्र सः गतवान्. तृणमेव अस्त्रं कृत्वा श्रीरामः तं प्रति क्षिप्तवान् आसीत्. अतः यथा इन्द्रपुत्रं काकासुरं तृणेन एव द्रावितवान् सर्वत्र, तथा एव तवापि स्थितिः भवति, तवापि गतिः सा एव भवति. यदि भवान् यदि त्वं साधुः न आचरसि तर्हि इति तं बोधयितुमिव ज्ञापयितुमिव तृणम् अन्तरतः कृत्वा इति द्वितीयं व्याख्यानं दीयते. वदति पशुतुल्यः त्वं रावणः, त्वया सह तव तव भोजनं तृणमेव स्यात्, अतः तृणम् इति पशुत्वं पशुत्वसूचकं वस्तु इति कृत्वा तृणम् अन्तरतः कृत्वा इति. अनन्तरं श्रीरामपादयोः पतनसमये तव तृणदंशनं भवेत् ज्ञापयति सीतादेवी. यदा कश्चन विनयेन शान्तमनसा स्वामिनः पादयोः पतति तदा तृणदंशनं सर्वं न भवति, सः आश्वस्तः पादयोः चरणौ. किन्तु यदा कश्चन युद्धसमये वा अथवा क्षिप्तः भवति तदा कथं पतेत्, तृणदंशनमेव स्यात् किल. श्रीरामपादयोः पतनसमये तृणदंशनं तव स्यात् इति बोधनपूर्वकं सा तृणं मध्ये स्थापयति. अनन्तरम् इतोपि एकं व्याख्यानं मदान्वितस्य, बहु मदान्वितः अस्ति किल भवान्, मम ऐश्वर्यम् अस्ति, अहं ग्रहानेव पीडयामि, ते मम वचनं शृण्वन्ति, समग्रम् अपि लोकमहं मम नियन्त्रणे स्थापयन्नस्मि इत्यादिकं. मदान्वितस्य तव सर्वमपि ऐश्वर्यं मम तृणसदृशम् इति बोधयन्ती इव सा तृणम् अन्तरतः कृत्वा भाषते. अनन्तरं पुनः एकं व्याख्यानं दीयते सपरिवारः त्वं प्रणश्यति, तृणमिव लघु अल्पत्वं प्राप्नोति भवान् इति. तृणं छित्त्वा तृणस्य छेदनं कथं, बहु सरलतया क्रियते किल मनुष्येण, तथा श्रीरामः तव कुलस्य च तृणच्छेदनमिव सरलतया तव अन्तं कारयति, तव नाशं कारयति इति ज्ञापनम् इव तृणम् अन्तरतः कृत्वा सा तत्र स्थिता पर्यभाषत, तथा वर्तमाना सा अवदत् सीतादेवी इति तृणमन्तरतः कृत्वा. एतस्य दर्शनेन पुनः पुनः एकं गद्यभागम् एतं गद्यभागं पश्यामः. रावणस्य दर्शनेन कम्पमाना मैथिली का पुरुषविषय परुषवचनपारम्पर्येण दुष्टोचित दुष्टजनस्य उचितवचनं किल, सः परुषवचनानि एव वदति, कटुवचनं. तादृश अपशब्दानां वचनानां वर्षणं करोति सः. तेन विदीर्यमाण हृदया दुःखिता सा हृदयदयिताशय प्रत्ययात्. तथापि हृदयेश्वरस्य श्रीरामस्य उद्देशः भवति यत् शीघ्रमेव सः रावणं हत्वा सीतां रक्षिष्यति इति प्रत्ययात् इति विश्वासात् अमुम् एतं रावणं धैर्येण तृणमन्तरतः कृत्वा तत्र स्थिता पर्यभाषत, तं प्रति उक्तवती. किम् उक्तवती इति अग्रे गद्यभागे उक्तम्. सा वदति यथा पूर्वम् उक्तम्, सीतादेवी आरम्भे एव तर्जनं न करोति, तं प्रार्थनापूर्वकं किञ्चित् प्रोत्साहनम् इव कुर्वती वदति. अस्तु, एषः अज्ञानी स्यात्, यदि किञ्चित् मार्गदर्शनेन किञ्चित् तस्य कुलस्य स्थितिं वा अथवा तस्य विवेकः जागरितः भवति चेत् सः एवं न कुर्यात् इति सा तम् उप ऐ इति सम्बोधनं करोति. ऐ इति सम्बोधनं प्रार्थनापूर्वकं प्रोत्साहनपूर्वकं भवति कदाचित्, यद्यपि मित्रभावेन ऐ इति सम्बोधनं क्रियते, अत्र भावः अस्ति तस्य प्रोत्साहनदानम् अथवा तं प्रार्थयते सा. किम् इति उक्त्वा अत्र पठामः. ऐ सकलसमाचारप्रतिष्ठानिष्ठः,
ऐ सकलसमाचारप्रतिष्ठानिष्ठः
परमेष्ठी ननु कुलगुरुर्भवतः,
परमेष्ठी ननु कुलगुरुर्भवतः
परकलत्ररतिः,
परकलत्ररतिः
अपत्रपां जनयति,
अपत्रपां जनयति
गोत्रजातानां,
गोत्रजातानां.
अस्य अन्वयः एवमस्ति, ऐ हे रावण सकलसमाचारप्रतिष्ठानिष्ठः परमेष्ठी भवतः कुलगुरुः ननु हि परकलत्ररतिः गोत्रजातानाम् अपत्रपां जनयति. ऐ हे रावण सकलसमाचारप्रतिष्ठानिष्ठः, समाचारः इत्युक्ते अत्र कुलाचारः, कुलवर्ण आश्रम वर्णाश्रमविधानं भवति किल, विधिः. सकल समस्त, समाचार इत्युक्ते सम्यक् आचर्यते इति समाचारः. किं किम् एकैकस्य अपि वर्णाश्रम वर्ण आचाराः भवन्ति, कुल आचाराः भवन्ति, आश्रम आचाराः अपि भवन्ति. समस्त वर्णाश्रम उचित विधान आचार इत्युक्ते विधान, तस्य प्रतिष्ठानिष्ठः तस्य विधानस्य स्थापने दृढव्रतः. ब्रह्मदेवः एव वेदान् प्राप्य अनन्तरं सः विधिं करोति, विधिनिषेधान् वदति. सृष्टादौ सृष्टेः आदौ च ब्रह्मदेवः सर्वानपि देवान् नरान् तेषां प्रतिनिधीन् इति अर्थः, सः बोधयति भवन्तः सर्वे स्वस्व धर्मं पालयन्तु, तेन किं भवति लोके समन्वयः भवति, सामरस्यं भवति. समस्त वर्णाश्रम उचित विधानस्थापने दृढव्रतः तव कः? परमेष्ठि ब्रह्मदेवः, सः एव साक्षात् भवतः कुलगुरुः किल. पौलस्त्यः रावणः, पुलस्त्यः इति तस्य वंशे आगतः, अतः भवतः कुलगुरुः साक्षात् ब्रह्मदेवः किल. निश्चयेन हि निश्चयेन परकलत्ररतिः स्वकीय इतरभार्यासु, परकलत्रेषु, कलत्रं नाम भार्या, स्त्री, परस्त्री, स्वकीय इतरस्त्रीषु रतिः, आसक्तिः, रतिः इत्युक्ते आसक्तिः, गोत्रजातानां तद् वंशजानाम्. इदानीं पुलस्त्यवंशे वंशागतः भवान्, साक्षात् ब्रह्मदेवेन साक्षात् सम्बन्धः अस्ति तव कुलपितामहस्य. गोत्रजातानां तद्वंशजानाम् अपत्रपां जनयति, त्रपा इत्युक्ते लज्जा, अपत्रपां जनयति, लज्जाम् उत्पादयति. कुलज्येष्ठानां यथा लज्जा भवेत् तादृशं कार्यं कोऽपि कर्तुं न इच्छति. केचन जनाः एवं भवन्ति, स्वयं कदाचित् अपमानं सहेत जनः, किन्तु कुलस्य अपमानः न भवेत् इत्यस्मिन् विषये बहु श्रद्धावन्तः भवन्ति केचन. अतः कुलविषये बहूनां श्रद्धा, आदरभावः भवति इति कारणेन स्यात् अत्र सीतादेवी तस्य कुलं स्मारयति. कुलो साक्षात् तव कुलस्य अनुचितम् एतद् अनुचितः व्यवहारः भवता क्रियमाणः, तद् परित्यज, शीघ्रमेव तत् तादृशं व्यवहारं परित्यज इति वदति अत्र सीतादेवी. सृष्टेः आदौ यथा देवान्, ऋषीन्, नरान् सर्वान् बोधयति, विधिनिषेधान् सूचयति, तादृशस्य सृष्टिकर्ता, अनन्तरं विधाता, विधिं निषेधं च यः सूचयति तस्य एव कुले उत्पन्न. इदानीं नगररक्षकः अस्ति, चोरस्य पुत्रः चौर्यं करोति चेत् तत्र न आश्चर्यं, किन्तु आरक्षकस्य पुत्रः एव चौर्यं करोति चेत् कथं? तद् तु सर्वथा अनुचितं किल. तथैव कुले ब्रह्मदेवः एव तव मूलपुरुषः, अस्मिन् कुले जातः त्वम् एवम् अकार्यं मा कुरु इति सीता तं बोधयेत्. स्वकुलं स्मर, कुलपांसुलः मा भूः इति स्मारयति. कुलपांसुलः यः कुलस्य अपमानं कारयति, कुलज्येष्ठानां लज्जां जनयति, तादृशः मा भूः त्वम् इति सीता तं देवी बोधयति. अद्य वयम् अनेन श्लोकेन अत्र एतं श्लोकं समाप्य विरमामः. एतं गद्यभागं पुनः पठित्वा, अयि सकलसमाचारप्रतिष्ठानिष्ठः परमेष्ठी ननु कुलगुरुः भवतः परकलत्ररतिः अपत्रपां जनयति हि गोत्रजातानां तद्वंशजानां लज्जामुत्पादयति, तादृशलज्जास्पदं कार्यं मा कुरु इति सीतादेवी तं बोधयति. एवं सीतादेव्याः रावणं प्रति वचनानि भवन्ति, तद् किम् इति वयम् अग्रिमसप्ताहे द्रक्ष्यामः. अग्रिमसप्ताहे गुरुवासरे एव वर्गः भवति. इदानीं शान्तिमन्त्रम् उक्त्वा समापयामः.
अस्तु भगिनि.
सर्वे भवन्तु
सुखिनः,
सर्वे
भवन्तु,
सर्वे
भद्राणि पश्यन्तु,
मा कश्चित् दुःखभाग्
भवेत्. ॐ
शान्तिः.
नमस्कार भगिनी.